Sairam, dear listeners, and welcome back to the studios of Radio Sai Prashantralayam, giving you a live broadcast every Thursday in the Asia stream of Radio Sai. As the proceedings in the Sai Kulwant Hall have ended just now with the beautiful presentation of the alumni of the primary school, the devotees are silently lined up to have a close glimpse, a close darshan of our Lord. And as the year 2015, which had celebrated the 90th year of the advent of our most dearest Bhagwan, comes to an end, and as we are entering into the new year 2016, Team Radio Sai welcomes you all and wishes you all a happy new year in advance. And with those special greetings, this is Team Radio Sai's Ganesh inviting you all to the first segment of this Thursday's live, the Vedam Tutor. As we have been learning the Aruna Prashna Mantram, last week we could not have the class. Today we are going to have a recap of what we had learned 2 weeks back, as this is a very big mantram and it's also very important. We are revising that particular session once again so that we shall perfect the stanzas in that mantram. Now over to Praveena sir, the class which was held 2 weeks back. Sai Ram.
Om Shri Sai Ram. We shall commence the session with Ganpati Prarthana Mantra chanting together.
गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीनामवित्र्यवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ
सैराम बिफोर वी कंटिन्यू फ्रॉम वेयर वी हैव स्टॉप्ड लास्ट टाइम विल just revise once what we had done last session. We'll start chanting together from the 15th paragraph, that is Ati Tamrani Vasa Gumsi. We'll chant the Samhita part of it. Chant together. We'll chant together. We'll chant even the Shanti Mantra for this, that is Bhadran Karanebi. Then we'll go for the paragraph starting.
भद्रं कर्णे विश्रुणुयाम देवाः भद्रं पश्ये माक्षभिर्यजत्राः स्थिरैरङ्गैः स्तुष्टुवागुं सस्तनोभिः व्यशेम देवहितय्यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः अतिताम्राणि वासागुंसे अष्टिवज्रिषदग्निचा विश्वे देवा विप्रहरन्ते अग्निजिह्वा असस्यता नैव देवो न मर्त्यः न राजा वरुणो विभुः नाग्रिर्नेन्द्रो न पवमानः मातृक्तच्छ न विद्यते दिव्यस्यैका धनुरात्रिः पृथिव्यामपराश्रिता तस्येन्द्रो वम्रिरूपेण धनुर्जामचिनत् स्वयम् तदिन्द्रधनुरित्यज्यम् अभ्रवर्णेषु चक्षते एतदेव शय्योर्बारहस्पत्यस्य एतद्रुद्रस्य धनुः रुद्रस्य त्वेव धनुरात्रिः शिर उत्पिपेशा सप्रवर्ग्योऽभवत् तस्माद्यः सप्रवर्गेण यज्ञेन यजते रुद्रस्य शशिरः प्रतिदधाति नैनगुम् रुद्र आरुको भवति य एवम् वेदा अध्योर्ध्वाक्षोतिरश्चात् शिशिरः प्रदृश्यते नैव रूपम् न वा सागुंसे न चक्षुः प्रतिदृश्यते अन्योन्यन्तु न हि दुःस्रातः सतस्तद्देव लक्षणम् लोहितोऽक्ष्निशारशीर्ष्णिः सूर्यस्योदयनम् प्रति त्वम् करोषिण्यञ्जलिका त्वम् करोषि निजानुका निजानुकामेऽन्यञ्जलिका अमीवाचमुपासतामिति तस्मै सर्वरुतवो नमन्ते मर्यादाकरत्वात् प्रपुरोधाम् ब्राह्मण आप्नोति य एवम् वेदा स खलु संवत्सर एतैः सेनानीभिः सह इन्द्राय सर्वान् कामानभिवहति स द्रक्षः तस्यैषा भवति अवद्रप्सो अगुंशुमते मतिष्ठत् यानः कृष्णो दशभिः सहस्रैः आवर्तमिन्द्रः शच्याधमन्तम् उपस्नुहितम् नृमणामथद्रामिति एतयैवेन्द्रः सला भृत्या सह असुरान् परिवृश्यते पृथिव्यगुंशुमते तामन्ववस्थितः संवत्सरो दिवम् च नैवम् विदुषाचार्यान्ते वासिनौ अन्योन्यस्मै द्रुह्याताम् यो द्रुह्यते भ्रश्यते स्वर्गालोकात् इत्र्यतु मण्डलानि सूर्यमण्डलान्याख्यायिकाः अथ ऊर्ध्वगुंस निर्वचनाः
प्लीज रिपीट आफ्टर मी ट्वाइस आरोगो भ्राजः पटरः पतङ्गः
आरोगो भ्राजः पटरः पतङ्गः आरोगो भ्राजः पटरः पतङ्गः
स्वर्णरो ज्योतिषीमान् विभासः
स्वर्णरो ज्योतिषीमान् विभासः स्वर्णरो ज्योतिषीमान् विभासः
ते अस्मै सर्वे दिवमातपन्ति
ते अस्मै सर्वे दिवमातपन्ति ते अस्मै सर्वे दिवमातपन्ते
ऊर्जं दुहाना अनपस्फुरन्त इति
ऊर्जं दुहाना अनपस्फुरन्त इति ऊर्जं दुहाना अनपस्फुरन्त इति
कश्यपोष्टमः
कश्यपोष्टमः कश्यपोष्टमः
समहामेरुन्न जहाति
समहामेरुन्न जहाति समहामेरुन्न जहाति
तस्यैषा भवति
तस्यैषा भवति तस्यैषा भवति
यत्ते शिल्पम्
यत्ते शिल्पम् యత్తే శిల్పం
కశ్యపరోచనావత్
కశ్యపరోచనావత్ కశ్యపరోచనావత్
తే శిల్పం కశ్యపరోచనావత్
యత్తే శిల్పం కశ్యపరోచనావత్ యత్తే శిల్పం కశ్యపరోచనావత్
ఇంద్రియావత్ పుష్కలం చిత్రభాను
ఇంద్రియావత్ పుష్కలం చిత్రభాను ఇంద్రియావత్ పుష్కలం చిత్రభాను
యస్మిన్ సూర్యా అర్పితా సప్త సాకం
యస్మిన్ సూర్యా అర్పితా సప్త సాకం యస్మిన్ సూర్యా అర్పితా సప్త సాకం
తస్మిన్ రాజానమధి
తస్మిన్ రాజానమధి తస్మిన్ రాజానమధి
విశ్రయేమమితి
విశ్రయేమమితి విశ్రయేమమితి
తస్మిన్ రాజానమధి విశ్రయేమమితి
తస్మిన్ రాజానమధి విశ్రయేమమితి తస్మిన్ రాజానమధి విశ్రయేమమితి
తే అస్మై సర్వే
తే అస్మై సర్వే తే అస్మై సర్వే
కశ్యపాజ్యోతిర్లభంతే
కశ్యపాజ్యోతిర్లభంతే కశ్యపాజ్యోతిర్లభంతే
తే అస్మై సర్వే కశ్యపాజ్యోతిర్లభంతే
తే అస్మై సర్వే కశ్యపాజ్యోతిర్లభంతే తే అస్మై సర్వే కశ్యపాజ్యోతిర్లభంతే
తాన్ సోమః కశ్యపాదధి నిర్ధమతి
తాన్ సోమః కశ్యపాదధి నిర్ధమతి తాన్ సోమః కశ్యపాదధి నిర్ధమతి
భ్రస్తా కర్మకృది వైవం
భ్రస్తా కర్మకృది వైవం భ్రస్తా కర్మకృది వైవం
ప్రాణో జీవానీంద్రియ జీవాని
ప్రాణో జీవానీంద్రియ జీవాని ప్రాణో జీవానీంద్రియ జీవాని
సప్తశీర్షణ్యాః ప్రాణాః
సప్తశీర్షణ్యాః ప్రాణాః సప్తశీర్షణ్యాః ప్రాణాః
సూర్యా ఇత్యాచార్యాః
సూర్యా ఇత్యాచార్యాః సూర్యా ఇత్యాచార్యాః
అపశ్యమహమేతాన్
అపశ్యమహమేతాన్ అపశ్యమహమేతాన్
సప్తసూర్యానితి
సప్తసూర్యానితి సప్తసూర్యానితి
అపశ్యమహమేతాన్ సప్తసూర్యానితి
అపశ్యమహమేతాన్ సప్తసూర్యానితి అపశ్యమహమేతాన్ సప్తసూర్యానితి
పంచకర్ణో వాత్స్యాయనః
పంచకర్ణో వాత్స్యాయనః పంచకర్ణో వాత్స్యాయనః
సప్తకర్ణశ్చ ప్రాక్షిః
సప్తకర్ణశ్చ ప్రాక్షిః సప్తకర్ణశ్చ ప్రాక్షిః
ఆనుశ్రవిక ఏవనౌ
ఆనుశ్రవిక ఏవనౌ ఆనుశ్రవిక ఏవనౌ
కశ్యప ఇతి
కశ్యప ఇతి కశ్యప ఇతి
ఆనుశ్రవిక ఏవనౌ కశ్యప ఇతి
ఆనుశ్రవిక ఏవనౌ కశ్యప ఇతి ఆనుశ్రవిక ఏవనౌ కశ్యప ఇతి
ఉభౌ వేదయితే
ఉభౌ వేదయితే ఉభౌ వేదయితే
నహి శేకుమివ
నహి శేకుమివ నహి శేకుమివ
మహామేరుం గంతుం
మహామేరుం గంతుం మహామేరుం గంతుం
నహి శేకుమివ మహామేరుం గంతుం
నహి శేకుమివ మహామేరుం గంతుం Nahishekumiva mahamerum gantum.
Apashya mahametat.
Apashya mahametat. Apashya mahametat.
Surya mandalam.
Surya mandalam. Surya mandalam.
Parivartamanam.
Parivartamanam. Parivartamanam.
Apashyamahametat Surya Mandalam Parivartamanam.
Apashyamahametat Surya Mandalam Parivartamanam. Apashyamahametat Surya Mandalam Parivartamanam.
Gargyah Pranatratah.
Gargyah Pranatratah. Gargyah Pranatratah.
Gacchanta Mahamerum.
Gacchanta Mahamerum. Gacchanta Mahamerum.
Ekancha Jahatam.
Ekancha Jahatam. Ekancha Jahatam.
Bhaja Patarapatanga Nihane.
Bhaja Patarapatanga Nihane. Bhaja Patarapatanga Nihane.
Tishthannata Panti.
Tishthannata Panti. Tishthannata Panti.
Tasma Dihataptritapah.
Tasma Dihataptritapah. Tasma Dihataptritapah.
Now we'll chant from the Arogo Bhaja Patarapatanga. We'll chant together the Samhita part.
Arogo Braja Patara Patangaha Swarnaro Jyotishi Mana Vibhasaha Te Asmai Sarve Divamata Pante Urjanduhana Anamaskuranta Hite Kashyaposhtamaha Samaha Merum Najahate Tasyaisha Bhavati Yatte Shilpam Kashyaparochanavat Indriyavat Pushkalam Chitrabhano Yasmin Surya Arpita Saptasakam Tasmin Raja Namadhi Vishraye Mamite Te Asmai Sarve Kashyapa Jyotirlabhante Tan Somah Kashyapada Dinirdhamate Vrasta Karma Kriti Vaivam Prano Jeevani Indriya Jeevani Sapta Shirshanya Prana Surya Itya Charya Apashyamahametan Sapta Surya Nite Panchakarno Vatsyayanaha Sapta Karnascha Plakshihi Anushravika Evanau Kashyapa Ite Ubhau Vedayite Nahishekumiva Mahamerum Dandum Apashyamahametat Surya Mandalam Parivartamanam Gargya Pranatratah Gacchanta Mahamerum Ekam cha jahatam bhaja patara patanga nihane tishthannata pante tasma dihataptritapah.
Please repeat after me twice from here. Amutretare.
Amutretare. Amutretare.
Tasma dihataptritapah.
Tasma dihataptritapah. Tasma dihataptritapah.
Tesha mesha bhavate.
Tesha mesha bhavate. Tesha mesha bhavate.
Sapta surya divamanu pravishtah.
Sapta surya divamanu pravishtah. Sapta surya divamanu pravishtah.
Tananveti patibhir dakshinavan.
Tananveti patibhir dakshinavan. Tananveti patibhir dakshinavan.
Te asmai sarve.
Te asmai sarve. ते अस्मै सर्वे
घृतमातपन्ते
घृतमातपन्ते घृतमातपन्ते
ते अस्मै सर्वे घृतमातपन्ते
ते अस्मै सर्वे घृतमातपन्ते ते अस्मै सर्वे घृतमातपन्ते
ऊर्जन्दुहाना अनपस्फुरन्त इति
ऊर्जन्दुहाना अनपस्फुरन्त इति ऊर्जन्दुहाना अनपस्फुरन्त इति
सप्तत्विजः सूर्या इत्याचार्याः
सप्तत्विजः सूर्या इत्याचार्याः सप्तत्विजः सूर्या इत्याचार्याः
सप्तत्विजः सूर्या इत्याचार्याः
सप्तत्विजः सूर्या इत्याचार्याः
तेषामेषा भवति
तेषामेषा भवति तेषामेषा भवति
सप्तदिशो नाना सूर्याः
सप्तदिशो नाना सूर्याः सप्तदिशो नाना सूर्याः
सप्तहोतार ऋत्विजः
सप्तहोतार ऋत्विजः सप्तहोतार ऋत्विजः
देवा आदित्या ये सप्त
देवा आदित्या ये सप्त देवा आदित्या ये सप्त
तेभिः सोमाभिरक्षणहिते
तेभिः सोमाभिरक्षणहिते तेभिः सोमाभिरक्षणहिते
तदप्याम् नायः
तदप्याम् नायः तदप्याम् नायः
तदप्याम् नायः
तदप्याम् नायः तदप्याम् नायः
दिग्भ्राजऋतून् करोति
दिग्भ्राजऋतून् करोति दिग्भ्राजऋतून् करोति
एतयैवावृता
एतयैवावृता एतयैवावृता
सहस्रसूर्यताय
सहस्रसूर्यताय सहस्रसूर्यताय
इति वैशम्पायनः
इति वैशम्पायनः इति वैशम्पायनः
एतयैवावृता सहस्रसूर्यताय इति वैशम्पायनः
एतयैवावृता सहस्रसूर्यताय इति वैशम्पायनः एतयैवावृता सहस्रसूर्यताय इति वैशम्पायनः
तस्यैषा भवति
तस्यैषा भवति तस्यैषा भवति
यद्याव इन्द्रते शतगुं शतम् भूमिः
यद्याव इन्द्रते शतगुं शतम् भूमिः यद्याव इन्द्रते शतगुं शतम् भूमिः
उतस्युः
उतस्युः उतस्युः
नत्वा वज्रं सहस्रगुं सूर्याः
नत्वा वज्रं सहस्रगुं सूर्याः नत्वा वज्रं सहस्रगुं सूर्याः
नत्वा वज्रं सहस्रगुं सूर्याः
नत्वा वज्रं सहस्रगुं सूर्याः नत्वा वज्रं सहस्रगुं सूर्याः
अनुनजातमष्ट
अनुनजातमष्ट अनुनजातमष्ट
रोदसे इति
रोदसे इति रोदसे इति
अनुनजातमष्ट रोदसे इति
अनुनजातमष्ट रोदसे इति अनुनजातमष्टरोदसे इति
नानालिङ्गत्वा धृतूनाम्
नानालिङ्गत्वा धृतूनाम् नानालिङ्गत्वा धृतूनाम्
नानासूर्यत्वा Suryatvam
Nana Suryatvam Nana Suryatvam
Nana Lingatva Druto Nana Suryatvam
Nana Lingatva Druto Nana Suryatvam
Astautu Vyavasita Iti
Astautu Vyavasita Iti Astautu Vyavasita Iti
Surya Mandalanyastata Urdhvam
Surya Mandalanyastata Urdhvam Surya Mandalanyastata Urdhvam
Teshamesha Bhavate
Teshamesha Bhavate Teshamesha Bhavate
Chitram Devanamudagadanikam
Chitram Devanamudagadanikam Chitram Devanamudagadanikam
Chakshur Mitrasya Varunasyagne
Chakshur Mitrasya Varunasyagne Chakshur Mitrasya Varunasyagne
Apradyava Prithive Antariksham
Apradyava Prithive Antariksham Apradyava Prithive Antariksham
Surya Atma
Surya Atma Surya Atma
Jagatas Tastushaschete
Jagatas Tastushaschete Jagatas Tastushaschete
Surya Atma Jagatas Tastushaschete
Surya Atma Jagatas Tastushaschete Surya Atma Jagatas Tastushaschete
I think before we wind up, we'll once chant these four paragraphs. They're starting from Amutretare. We'll chant together the Samhita part of it.
Amutretare tasmadiha taptritapah teshamesha bhavate saptasuryadhirvamanupravishtah tananveti patibhirdakshinabhan Te asmai sarve ghritamata pante urjanduhana anapaspuranta hite saptar dvijas surya ityacharya teshamesha bhavate saptadishonana surya saptahotana ritvijaha deva aditya ye sapta Devisoma virakshana hite tadapyam nayaha digbhrajarudun karote etayai bhavrata sahasrasuryataya iti vaishambayanaha tasyaisha bhavate yadyava indrate shatagum shatam bhumihi utasyuhu Natva vajrin sahasragum suryaha anunajatam astarodasi iti nana lingatva dhrutu nana suryatvam ashtautavyavasita iti suryamandaranyastata urdhvam teshamesha bhavate Chitran Deva Namudagadanikam Chakshur Mitrasya Varunasya Agne Apradyava Pradivi Antariksham Surya Atma Jagatas Tastushas Chete Bhadram Karne Vishrunuyama Deva Bhadram Pashye Maksha Viryajatra Thirairangai stushtuvagumsastanubhiri Vyashema devahi tanyadayuhu Swastina indro vriddhashravaha Swastina pusha vishvavedaha Swastina starksho arishtanemihi Swastino brihaspadirdhatu Om Shanti, 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 यदक्षरपरब्रष्टम् मात्राहीनम् तु यद्भवेत् तत्सर्वम् क्षम्यताम् देवा नारायणमोऽस्तु ते विसर्गबिन्दुमात्राणि पदपादाक्षराणि च न्यूनानि चातिरिक्तानि क्षमस्व सा ईश्वरा अपराधसहस्राणि क्रियन्ते हर्निषन्मया दासोऽयमिति माम् मत्वा क्षमस्व सा ईश्वरा अन्यथा शरणम् नास्ति त्वमेव शरणम् मम तस्मात् कारुण्यभावेन रक्ष रक्ष सा ईश्वरा हरिः ॐ तत्सत् श्रीसाईश्वरार्पणमस्तु।
Salam, dear listeners, what you heard so far was the Vedam Tutor on Thursday Live. I'd like to inform you that we are running about half an hour late due to the program in the Mandir, which concluded later than usual. But we'd like to inform you that all our programs will be aired as per the schedule. Just a delay of half an hour is what you could expect in all our programs. What concluded, as I said, was the Vedam Tutor. Over now to the Bhajan Tutor. And at the end of this Bhajan Tutor, as always, we'll have the Children's Hour program and the concluding program outside, inside, deep inside. Now for the Bhajan Tutor conducted by Brother Bishu from Radio Sai.